ज्ञानविज्ञानमन्दिरम् इति ग्रन्थालयस्य आख्या विद्यते। ग्रन्थालयः विशालः वर्तते, तस्य विविधाः विभागाः। प्रथमः विभागः वृत्तपत्राणाम् अस्ति, द्वितीयः विभागः केवलं बालानां कृते अस्ति। ग्रन्थालये काव्यनाट्यकथादिकं बहुविधं साहित्यं भवति। प्रथितानां जनानां चरित्राणि तथा आत्मवृत्तानि अपि सन्ति। रघुवंशादीनि काव्यानि, शाकुन्तलादीनि नाटकानि रसिकान् आनन्दयन्ति। अत्र प्राचीनाः वेदाः, रमणीयानि रामायणादीनि काव्यानि, पवित्रा गीता च वर्तन्ते। ग्रन्थालयस्थाः विविधाः शब्दकोशाः, ज्ञानकोशाः, संस्कृतिकोशाः च अस्माकम् अक्षरं धनम् अस्ति। सर्वे इष्टपुस्तकलाभेन मोदन्ते। ग्रन्थालयः विद्यायाः मन्दिरम् एव।